वीरस्तस्मादजनि जगताम् भागधेयैकमूर्तिः देवश्चौर्यत्रिभुवन गुरुः भिल्लमक्षोणिपालः यत्कोपाग्निप्रसृमरशिखालीढम् अद्यापि दृप्यत् क्षत्रारण्यम् जगति कलया नैव रोहत्यखर्वम्।